पायान्मां यो भुजङ्गं सदरिमदमयद्रागुपाध्यायसेवी विश्वेभ्यो वेगदूरप्लवनजवनियुद्धादिवीर्यातिशायी येनास्तामूढशङ्का श्रुतिशुचिवचसा लङ्गुरो शीर्षशूला सख्युर्नारायणज्ञोऽथय उपनिषदं व्याख्यतास्मै सुरार्थ्यः सन्न्यासे बद्धबुद्धिः कृतहरिणमनः पार्थपूज्यं यतिं प्राक् प्राज्ञं गुर्वाज्ञयालं सुगुणहरिविदं सत्तपस्तृप्तदेवं प्राप्तं सर्वज्ञशिष्याख्यवरमुपगतो द्विस्वतातं निषेद्धुं प्राप्तं चानुत्तरं यो व्यधितसहजवान् मातरं चावतान्माम् पूर्णप्रज्ञाख्य आसीत् यतिकुलतिलको यः शुभाचार ईश प्रत्तोऽस्मा ईश्वराज्ञा गतसुरसरिति स्नानकृज्यैत्रपत्रः दुष्पद्यच्छिच्च लोके प्रवचनचतुरः सत्पुराणेतिहासस्योक्तौ मेधाप्रदर्शी दिशतु शुभदृशं मह्यमृज्वग्रणीः सः साक्षादानन्दतीर्थो नुमितिभिरुरुजिद्योनुमातीर्थनामा बुद्ध्यब्धिं वादिसिंहं सपदि विजितवान् दुष्टभाष्यापनोदी अच्छेद्योक्तिः प्रमोदम् पितुरपि कृतवान् नर्मगर्भं गुरूक्तो भाष्यं कर्तुं श्यवोचत् प्रियसखयतये सूत्रभावं समाव्यात् याम्याशायान् प्रभोक्ता बहुफलसमितेः क्षीरिणीं प्रेक्ष्य यान्तीं स्यानन्दूरं च दैत्यं सपदि विजितवान् फाल्गुणं तीर्थमाप्तः सेतुं चात्रापि हास्यं खलमथ कृतवान् सर्वजिद्रङ्गनाथम् नत्वा यान्विश्ववन्द्योष्युपनदिविबुधौ कस्य वेन्मां सधन्यः